तद्गतेन मनसा भाष्यन्ति यं योगिनो यस्यान्तम् विदो सुरासुरगणा देवाय तस्मै नमः। प्रसन्नतां यो न गताभिषीकतस्तथानमं लोवनवासदुःखतः मुखाम्बुजश्रीरघुनन्दनस्य मे सदास्तु सामाञ्जुलमङ्गलप्रदः। यन्मायावशवर्ति विश्वमखिलम् ब्रह्मादिदेवासुरा यत्सत्त्वादिमृषैव भाति सकलम् रजौ यथा हेर्भमः। यत्पादप्लवमेकमेव हि भवाम्भोधे स्थितीर्षावताम् वन्देऽहं तमशेषकारणपरम् रामाख्यमीशं हरिम्। वामां केच विभाति भूधर सुता देवापगामस्तके भाले बाल विधूर गले च गरलम यस्योरसी व्यालराट सुयम भूति विभूषण सुरवरा सर्वाधिपा सर्वदा सर्व सर्वकर शिव शशिनिभ श्री शंकर पातु माम शुक्लां ब्रह्म विचार सार परमा माद्यां जगद्व्यापिनीं वीणा पुस्तक धारिणीं अभयदा जाद्यन्धकारापः हस्ते स्फाटिकमालिकां विदधति पद्मासने संस्थिता वंदे तां परमेश्वरीं भगवतीं बुद्धिं प्रदां शारदाम् अखंडे मंडलाकारं व्याप्तं येन चराचरं तत्पदं दर्शितं येन तस्मै श्री गुरुवे नमः तस्मै तस्मै श्री